इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः जतिन शर्मा। आदौ मुख्य वार्ताः। शुभेन्दु अधिकारी पश्चिम बंगालस्य प्रथमः भाजपा मुख्यमंत्री संजातः। तेन सह पञ्चान्यैः मन्त्रिभिः अपि पदगोपनीयतायाः शपथं गृहीतम्। तमिलनाडुराज्ये नूतन सर्वकार रचनायै टीवीके दलेन प्रमाणितं यत् तेषां पार्श्वे 20+ विधायकानां समर्थनं वर्तते। राष्ट्रिय विधिक सेवा प्राधिकरणेन अशेषे हि देशे विवादानां सौहार्दपूर्ण रीत्या निस्तारणार्थं राष्ट्रिय लोक न्यायालयस्य आयोजनं विहितम्। विदेशमन्त्री डॉ एस जयशंकरः द्विपक्षीय सहयोगं सुदृढीकर्तुं त्रिनिदाद एण्ड टोबेगो देशस्य प्रधानमन्त्रिणा सह मेलनं साधितवान्। अपि च क्रिकेट स्पर्धा मालिकायाम् अद्य जयपुर नगरे राजस्थान रॉयल्स दलं गुजरात टाइटन्स दलेन सह क्रीडिष्यति। अथ वार्ताः विशदीकृत्य। शुभेन्दु अधिकारी पश्चिम बंगालस्य नूतन मुख्यमन्त्रित्वेन शपथं गृहीतवान्। इत्थं पश्चिम बंगाल राज्ये प्रथमं तावत् भाजपा दलस्य प्रशासनं संघटितं जातम्। अवधेयं यत् भाजपादलं विधानसभा निर्वाचनेषु ऐतिहासिकं जयं समर्ज्य तृणमूल कांग्रेस दलस्य 15-वर्षात्मकस्य शासनस्य अन्तं कृतवत्। कोलकाता नगरस्य ब्रिगेड परेड ग्राउंड इति स्थले राज्यपालः आर एन रविः श्री शुभेन्दु अधिकारिणं पदगोपनीयतायै प्रतिश्रावितवान्। तेन सह पञ्चान्यैः मन्त्रिभिः अपि पदगोपनीयतायाः शपथं गृहीतम्।
आज का दिन बहुत महत्वपूर्ण है देश के लिए, बंगाल के लिए। इसलिए प्रधानमंत्री का इच्छा था नया सरकार रविंद्र जयंती का दिन अपना कार्यकाल शुरू करे। इसलिए हम लोग प्रधानमंत्री जी का नेतृत्व में गोवि गुरु को प्रणाम करते हुए आज संविधान को मानते हुए ओथ टेकिंग किया।
तमिलनाडु राज्ये नूतन सर्वकार रचनायै टीवीके दलेन प्रमाणितं यत् तेषां पार्श्वे 20+ विधायकानां समर्थनं वर्तते। 34-200 सदस्यानां विधानसभायां बहुमताय 18-100 विधायकाः आवश्यकाः आसन्। चेन्नई नगरे वार्ताहरैः सह भाषमाणः टीवीके दलस्य नेता अधव अर्जुनः अवदत् यत् वीसीके तथैव इण्डियन यूनियन मुस्लिम लीग इत्युभाभ्यां दलाभ्यां तस्मै पक्षाश्रयं विना समर्थनं प्रदत्तम्। अधुना निर्वाचने 88% आसनानि जित्वा टीवीके सर्वबृहत्तम दलत्वेन उद्भूतम्। यद्यपि दलनेता सी जी सेफ विजयः द्वयोः क्षेत्रयोः विजयी जातः, अतः तेन एकं स्थानं परित्यक्तं भविष्यति, येन दलस्य संख्या 70+ भविष्यति। तथापि कांग्रेस दलस्य 5 विधायकाः सीपीआई सीपीआईएम वीसीके तथा आईयूएमएल इत्येतेषां प्रत्येकं 2-2 विधायकौ च मिलित्वा सहायक दलानां कुलसंख्या 13 वर्तते, येन बहुमतस्य मार्गः प्रशस्तो जातः। राष्ट्रिय विधिक सेवा प्राधिकरणम् अद्य सम्पूर्ण देशे ऐषमः द्वितीय राष्ट्रिय लोक न्यायालयस्य आयोजनं विदधाति। प्राधिकरणस्य सदस्य सचिवः संजीव पाण्डेयः आकाशवाणीं विज्ञापयत् यत् लोकन्यायालये सहमतेः योग्येषु आपराधिक प्रकरणेषु वादश्रवणं विधीयते। अस्य आयोजनस्य उद्देश्यं न्यायालयेषु लम्बित प्रकरणानां सहमत्यानुसारं निस्तारणम् इति वर्तते। श्रीपाण्डेयः अवोचत् यत् 23-2000 25-2000 यावत् 12 राष्ट्रिय लोक न्यायालयानाम् आयोजनं विधाय 26 कोटि प्रकरणानां समाधानम् अभवत्।
आज राष्ट्रीय लोक अदालत का आयोजन पूरे देश में एक ही समय पे किया जा रहा है। इसका मुख्य उद्देश्य है कि न्यायालय में लंबित मामलों का बोझ कम किया जाए तथा जो मामले जो विवाद न्यायालय में और प्री लिटिगेशन स्टेज पे लंबित हैं, उनको समझौते के आधार पर निस्तारित किया जाए।
संस्कृत वार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.com newsonair.gov.in इत्यत्र अथ newsonair चलदूरभाषीय तन्त्रांशे अपि समुपलब्धो भविष्यति। विदेशमन्त्री सुब्रह्मण्यम् जयशंकरः भारत त्रिनिदाद टोबैगो देशानां मिथः पारम्परिक सम्बन्धानां प्रशंसाम् अकरोत्। त्रिनिदाद टोबैगो इत्यस्य विदेश तथा कैरिकॉम प्रकरणानां मन्त्रालयस्य समारोहे डॉ जयशंकरेण द्वयोः देशयोः प्रगाढ़ सांस्कृतिक सम्बन्धानां अथ ऐतिहासिकतायाः उल्लेखं कृतम्। भारतस्य त्रिनिदाद टोबैगो अमुना सह परम्परागत रूपेण मैत्रीपूर्णाः सम्बन्धाः वर्तन्ते। उभयोः देशयोः जनाः वेशभूषां क्रीडाम् आहार व्यवहारं च समेत्य परम्पराः यावत् नैकेषु विषयेषु साम्यं सन्दधते। डॉ जयशंकरेण प्रधानमन्त्रिणा कमलाप्रसाद विशेषरवर्येण सह मेलनं विधाय द्विपक्षीय सहयोगम् इतोऽपि सुदृढीकर्तुं चर्चा कृता। यात्रावधौ पर्यटनं विदेश कैरिकॉम मंत्रालय भवनस्य सौरोर्जा संचालनं विविध परियोजनाः अथ च आयुर्वेद केन्द्रस्य स्थापनां समेत्य नैकेषु विषयेषु सहमतिः जाता। प्रधानमन्त्री नरेन्द्र मोदी श्वः कर्णाटकस्य बेंगलुरुनगरे आर्ट ऑफ लिविंग इत्येतस्य संस्थानस्य 45वीं वर्षपूर्तिम् उपलक्ष्य आयोजयिष्यमाणे समारोहे सहभागितां करिष्यति। श्रीमोदी आर्ट ऑफ लिविंग इंटरनेशनल सेंटर इत्यत्र नवनिर्मितं ध्यानमन्दिरमपि उद्घाटयिष्यति। ततः परं प्रधानमन्त्री नरेन्द्र मोदी हैदराबादनगरे प्रायः 1,250,000,000,000,000 रूप्यकाणाम् अनेकासां विकास परियोजनानां शिलान्यासं लोकार्पणं च करिष्यति। प्रधानमन्त्री नरेन्द्र मोदी तत्र हैदराबाद पणजी आर्थिक वीथिकायां राष्ट्रिय राजमार्गस्य चतुः भागपरस्य निर्माणस्य आधारशिलामपि स्थापयिष्यति। तत्रैव प्रधानमन्त्री वारंगल स्थले पीएम मित्रा पार्क इत्येतस्य उद्यानस्य उद्घाटनं करिष्यति। सममेव श्रीमोदी हैदराबाद अत्याधुनिकं कर्करोगपरं चिकित्सालयमपि लोकार्पयिष्यति। अद्य गुरुदेवस्य रवीन्द्रनाथ ठाकुरस्य 65वीं जयन्ती वर्तते। दिनमिदम् उपलक्ष्य शान्तिनिकेतनं विश्वभारती विश्वविद्यालयं अथ बांग्लादेशं समेत्य जगतः अनेकेषु स्थलेषु सांस्कृतिक कार्यक्रमाः समायोजिताः। उपराष्ट्रपतिः सीपी राधाकृष्णन वर्यः, प्रधानमन्त्री नरेन्द्र मोदी, गृहमन्त्री अमितशाहः अथ रक्षामन्त्री राजनाथ सिंहः पोचिशे बोईशाख इत्येतस्य अवसरे गुरुदेवाय श्रद्धाञ्जलिं समर्पितवन्तः। भारतीय रिजर्व बैंक इत्यनेन नियामक निर्देशानां तथा च केवाईसी मानकानां उल्लंघनमुद्दिश्य हिन्दुजा हाउसिंग फाइनेंस सहैव यस बैंक इत्यनयोः उपरि मौद्रिक दण्डः आरोपितः। पृथक् पृथक् वक्तव्येषु भारतीय रिजर्व बैंकेन सूचितं यत् तेन हिन्दुजा हाउसिंग फाइनेंस इत्यस्योपरि 1.80 लक्ष रूप्यकाणां दण्डः प्रस्थापितः। अपरत्र यस बैंक इत्यस्योपरि 1.80 लक्ष रूप्यकाणां दण्डः आरोपितः। भारतीय ऋतुविज्ञान विभागेन आगामि 5 दिवसेषु केरलम् राज्यस्य विविध जनपदेषु विद्युत्पातेन प्रचण्ड वायुना च सह अतिवृष्टेः पूर्वानुमानं प्रकटितम्। विभागेन अद्य राज्यस्य 9 जनपदेषु पीतवर्णीया संचेतना अपि प्रसारिता। श्वः अपि संचेतना तावत् 7 जनपदेषु यथावस्थं कार्यान्विता भविष्यति। प्रतिकूल वातावरणस्य कारणात् मत्स्याजीविभ्यः अद्य केरल लक्षद्वीपतटेषु गमनपरिहारार्थं परामर्शः प्रदत्तः। यद्यपि कर्णाटकतटेषु मत्स्यग्रहणार्थं तादृशः कश्चन प्रतिबन्धः एतावता नैव उपस्थापितः। आईपीएल क्रिकेट स्पर्धा मालिकायाम् अद्य राजस्थान रॉयल्स दलं गुजरात टाइटन्स दलेन सह क्रीडिष्यति। भारतीय समयानुसारेण इयं स्पर्धा तावत् सायं 7:30 जयपुरनगरे आरप्स्यते। अवधेयं यत् अंकतालिकायां राजस्थान दलं चतुर्थे गुजरात दलं च 5मे स्थाने स्तः। इति वार्ताः।